उत्पश्यामि त्रुतमपि सखे मत्प्रियार्थं ययासोः कालक्षेपं ककुभसुरभो पार्वते पार्वते ते शुक्लापाङ्गै सनयनजलै स्वागतीकृत्य केकाः प्रत्युत्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत्।